इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां म्यान्मारदेशस्य राष्ट्रपतिना यू मिन आंग लाइंग इत्यनेन सह चर्चां करिष्यति। उभयोः देशयोः मध्ये ऐतिहासिकानां सभ्यतानां च सम्बन्धान् इतोपि सुदृढीकरणाय वार्तालापः भविष्यति। वार्तालापावधौ म्यान्मार भारतयोः मध्ये सुरक्षा सम्पर्कौ च समेत्य सम्पूर्णेषु विभिन्नेषु विषयेषु चर्चाः भविष्यन्ति। राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः गतरात्रौ दिल्ल्याम् अतिथिगणमान्यैः सह मेलनं विहितवान्। अवधेयं यत् म्यान्मारदेशस्य राष्ट्रपतिः शनिवासरे भारतस्य पञ्चदिवसीय यात्रायां बिहारस्य गयानगरं सम्प्राप्तवान् आसीत्। म्यान्मारदेशस्य राष्ट्रपतेः भारतस्य आधिकारिकयात्रायाः कारणात् उभयोः देशयोः मध्ये बहुपक्षीयसम्बन्धः इतोपि सुदृढः भविष्यति इत्यपेक्षास्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकृतिसंरक्षणे स्थानीयसमाह्वानानां निराकरणे अन्यसामाजिककार्येषु च तेषां प्रेरक उपक्रमाणाम् उपलब्धीनां च विषये अनेकेषां नागरिकाणाम् उत्कृष्टयोगदानाय प्रशंसा कृता। आकाशवाण्याः स्वकीये मासिक कार्यक्रमे मन की बात इत्यनेन कार्यक्रमेण राष्ट्रम् अभिसम्बोधयन् श्रीमोदी झारखण्डराज्यस्य रांचीनगरे आयोजिते राष्ट्रिय वरिष्ठ एथलेटिक्स फेडरेशन स्पर्धायाम् उदयोन्मुख क्रीडकानाम् उत्कृष्ट प्रदर्शनस्य प्रशंसाम् अकरोत्। प्रवर्तमानायाः उष्णतरङ्गस्य स्थितिं प्रति चिन्तां प्रकटयन् प्रधानमन्त्रिणा जनान् अधिकृतान् उपदेशान् अनुसृत्य सुरक्षितं स्थातुं पूर्वसूचनानुसारं कार्यं च कर्तुम् उद्बुद्धवान्।
इस समय देश के ज्यादातर हिस्सों में बहुत गर्मी पड़ रही है। तेज धूप, गर्म हवाएं, ऐसे मौसम में अपना ध्यान रखना बहुत जरूरी है। पानी पीते रहिए, धूप में अगर निकलना ही पड़े तो थोड़ा संभल कर निकले। इस दिशा में सरकार की भिन्न भिन्न डिपार्टमेंट्स ने जो गाइडलाइंस जारी की है वो भी भूलिएगा नहीं।
पश्चिम बंगाल राज्यस्य मुख्यमंत्री शुभेंदु अधिकारी अद्य स्वमंत्रिमंडलस्य विस्तारं करिष्यति। पञ्चत्रिंशत् नूतनाः मन्त्रिणः मन्त्रिमंडले समाविष्टाः भविष्यन्ति। शपथग्रहणं प्रातः एकादशवादने लोकभवने भविष्यति। नूतनेन समावेशेन शुभेन्दु प्रशासने महत्वपूर्णरूपेण संवर्धनं भविष्यति, येन मई मासस्य नवमे दिनांके पञ्चमन्त्रिभिः सह कार्यभारं स्वीकृतमासीत्। अनेन विस्तारेण राज्यमन्त्रिमण्डलस्य मन्त्रिणां कुलसंख्या एकचत्वारिंशत् यावत् वर्धिता भविष्यति। निर्वाचनायोगेन दश राज्याणां चतुर्विंशतिः राज्यसभासदस्यानां द्विवार्षिक निर्वाचनस्य कार्यक्रमस्य घोषणा अद्य क्रियते। भूतपूर्वः प्रधानमन्त्री एचडी देवगौड़ा, केन्द्रीयमन्त्रिणौ जॉर्ज कुरियन तथा रवनीत सिंहश्च तेषु सदस्येषु अन्तर्भवन्ति। आन्ध्रप्रदेशे, गुजराते तथा कर्णाटके प्रत्येकस्मिन् राज्ये चत्वारि चत्वारि आसनानि सन्ति। राजस्थाने तथा मध्यप्रदेशे प्रत्येकस्मिन् राज्ये त्रीणि त्रीणि आसनानि सन्ति। झारखण्डे द्वे आसने स्थः, मणिपुरे, मेघालये, अरुणाचलप्रदेशे च, मिजोरमे च प्रत्येकस्मिन् राज्ये एकैकम् आसनं रिक्तमस्ति। आयोगस्यानुसारं जूनमासस्य अष्टादश दिनांके मतदानं भविष्यति। मतगणना अपि तस्मिन्नेव दिने भविष्यति। महाराष्ट्रस्य, तमिलनाडुराज्यस्य, ओडिशाराज्यस्य च प्रत्येकस्य एकस्य आसनस्य कृते राज्यसभायाः उपनिर्वाचनस्य कार्यक्रमस्य अपि आयोगेन घोषणा क्रियते। एतद् निर्वाचनमपि अग्रिममासस्य अष्टादश दिनांके भविष्यति। एकोननवति वर्षीया प्रख्यात गायिकायाः सुमनकल्याणपुरस्य मुम्बईनगरे स्वनिवासस्थाने मृत्युः अभवत्। पञ्चाशदधिक ऊनविंशतिशततमाद् वर्षात् सप्तत्यधिक ऊनविंशतिशततमं वर्षं यावत् चलचित्रसंगीतस्य स्वर्णयुगे नैकासु भारतीयभाषासु कृत कार्याणां कृते एषा वयोवृद्धगायिका प्रसिद्धा आसीत्। अपि च आईपीएल क्रिकेट क्रीडायां गतरात्रौ अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे अन्तिमस्पर्धायां गुजरात टाइटन्स दलं पञ्चस्तोभैः पराजित्य गतविजेतृदलेन रॉयल चैलेंजर्स बेंगलुरु इत्यनेन अस्य वर्षस्य श्रृंखलापि विजिता। इति वार्ताः।